राम गीता जी का पाठ पांचवा अध्याय प्रारंभ से श्लोक 10 तक। राम
वसुदेव सुखदेवम् पंचजानोरमार्जनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम्। वसतमूर्ध्याय अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च संससि यत्सेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्। श्रीभुवनुवाच संन्यासः कर्मयोगश्च निःश्रेयसकरावभौ तयोस्तु कर्म संन्यासात् कर्मयोगो विशिष्यते। ज्ञेयः स नित्य संन्यासी यो न द्वेष्टि न कांक्षति निर्दन्दो हि महाबाहु सुखं बन्धात्र मोच्यते। सांख्ययोगौ पृथक् बाला प्रवदन्ति न पण्डिता एकमाप्याश्रितः सम्यक् उभयोर्विन्दते फलम्। यः सांख्यैः प्राप्यते स्थानम् तद्योगैरपि गम्यते। एकं सांख्यं च योगं च यः पश्यति स पश्यति संन्यासस्तु महाबाहो दुःखमात्मयोगतः। योगयुक्तो मुनिर्ब्रह्मा नतिरेणाधिगच्छति योगयुक्तो विशुद्धात्मा विदितात्मा जितेन्द्रिय सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते नैव किञ्चित् करोमीति युक्तो मन्येत तत्त्वे। पश्ये शृण्वन् स्पृशेशीघ्रं नाश्नन् गच्छन् स्वपैश्वसन् कल्पान्दृशिगन्धन् नुन्मिषन्निमिषन्नपि इन्द्रियाणीन्द्रियाशेषु वर्षान्तरिति धारयन् ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य लिप्यते न स पापेन पद्मपत्रमिवम्बसा। ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य लिप्यते न स पापेन पद्मपत्रमिवम्बसा। वसुदेव सुतं देवं पंचजानोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्।
हरे शरणम् 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 हरे शरणम 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 हरे शरणम।